सम्प्राप्तो मथुरान्दिनार्ध विगमे तत्रान्तरस्मिन् वसन्नारामे विहिताशनः सखि जनैर्यातः पुरीमीक्षितुम् प्रापो राजपथञ्चिरश्रुतिधृतव्यालोककौतूहलस्त्री पुंसोऽद्यदगण्यपुण्यनिगलैराकृष्य माणो नु किम् त्वत्पादद्युतिवत्सरागसुभगाः त्वन्मूर्तिवद्योषितः सम्प्राप्ता विलसत्पयोधररुचः लोलाभवदृष्टिवत् हारिण्यस्त्वदुरस्थलीवदयिते मन्दस्मितप्रौढिवत् नैर्मल्योल्लसितः कचौघरुचिवत् राजत्कलापाश्रिताः तासामाकलयन्नपाङ्गवलनैः मोदम् प्रहर्षाद्भुतव्यालोलेषु जनेषु तत्र रजकम् कञ्चित्पटीम् प्रार्थयन् कस्ते दास्यति राजकीयवसनम् याहीति तेनोदितः सद्यस्तस्य करेण शीर्षमहृताः सोऽप्यापपुण्याङ्गतिम् भूयो वायकमेकमायतमतिम् तोषेण वेषोचितम् दाश्वांसं स्वपदं निनेथ सुकृतम् ओ वेद जीवात्मनाम् मालाभिस्तवकैस्तवैरपि पुनर्मालाकृता मानितः भक्तिं तेन वृतान्दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते कुब्जामब्ज विलोचनां पथि पुनर्दृष्ट्वाङ्गरागेतया दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि चित्तस्थां ऋजुतामथ प्रथयितुम् गात्रेऽपि तस्या स्फुटम् गृह्णन् मञ्जुकरेण तामुदनयस्तावज्जगत्सुन्दरी तावन्निश्चितवैभवास्तव विभो नात्यन्तपापाजनाः यत्किञ्चिद्ददते स्म शक्त्यनुगुणम् ताम्बूलमाल्यादिकम् गृह्णानः कुसुमादिकिञ्चन तदा मार्गे निबद्धाञ्जलिः नातिष्ठम्बत हायतोऽद्य विपुलाम् आर्तिं व्रजामि प्रभो एषा नीति विमुक्तयापि भगवन्नालेपदात्र्यातया दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् आघोषानुमितत्वदागममहाहर्षोल्लद्देवकी वक्षोजप्रगलत्पयोरसमिषात् त्वत्कीर्तिरन्तर्गता आविष्टो नगरी महोत्सववती कोदण्डशालां व्रजन् माधुर्येण नु तेजसानुपुरुषैर्दूरेण दत्तान्तरः स्रग्भिर्भूषितमर्चितं वरधनुर्मामेति वादात् पुरः प्राग्गृह्णा समारोपयः किल समाक्राक्षीरभंशिरपि श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भ तूर्योपमः चापध्वंसमहाध्वनिस्तव विभो देवानरोमाञ्चयत् कंसस्यापि च वेखतुस्तदुदितः कोदण्डखण्डद्वयी चण्डाभ्याहत रक्षिपूरुषरवैरुत्कूलितो भूत्वया शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः सम्पश्यन् पुरसम्पदम् प्रविचरन् सायं गतो वाटिकाम् श्रीदाम्ना सह राधिका विरहजम् खेदं वदं प्रस्वपन् आनन्दन्नवतारकार्यघटनात् वातेश संरक्ष माम् सदा सर्वत्र गोविन्द नाम संकीर्तनम् गोविन्दा गोविन्दा नारायणा अखिल गुरो भगवन् नमस्ते।